इन्द्राजसोमसुषुतः परिस्रवापामेवाभवतु रक्षसा सह मातेरसस्य मत्सदत्वजापि नो द्रविडस्वन्त इह सन्विन्दवः अस्मान् स पर्येपमानचोदयदक्षो देवानामसिहि प्रियो मदाः जहि शत्राङ्ग्रभ्याभन्दनायतः पिबेन्द्रसो मम वनो मृधो जहि अदब्ध इन्दोपवसे मदिन्दव आत्मेन्द्रस्य भवसि धासिरुत्तमः अभिस्वरन्ति बहवो मनीषिणो राजादमस्य भुवनस्य निंसते सहस्रनेधः शतधारो अद्भुत इन्द्रायेन्दः पवते काम्यम् मधो जयन् क्षेत्रमभ्यर्षा जयन् नव उरन्नो गातुम् कृणु सोममीढ्वः कनिक्रदत्करशे गोभिरज्यसेव्या अव्ययम् समजापारमर्षसे मरमृज्यमानो अत्योनसा नसिरिन्द्रस्य सोमजठरे समक्षरः स्वादुः पवस्व दिव्याय जन्मने स्वादुरिन्द्राय स्वहवेतुनाम्ने स्वादुरमित्राय वरुणाय वायवे बृहस्पतये मधुमाङ्कदाभ्यः अत्यम् मृजन्त्य कलशेदसक्षिपः प्रविप्राणाम् मतजो वाच ईरते पवमाना अभ्यर्षन्ति सुष्टुतिमेन्द्रम् विशन्ति मदिरास इन्दवः पवमानो अभ्यर्षा सुवीर्यमुर्वीङ्गव्यो दिम्महि शर्म सप्रधाः मा किर्न्द अस्य परिशोतिरीशतेन्दो जजे मत्तया धनन्धनम् अधित्यावस्थात् वृषभो विचक्षणोरो रजद्विदिवोरो जनाकविः राजा पवित्रमत्ये दिरोरुमद्दिवः पेजोषम् दहते नृचक्षसः दिवोरा के मधुजिह्वा असश्चतो वेदादुहन्त्युक्षणम् गिरिष्ठा अप्सद्रप्सम् वा वृधानम् समुद्र आसिन्धो रोर्मा मधुमन्दम् पवित्र आ नाके सुवर्णमुपपक्तिमाम् सङ्गिरो वेदानामग्रमन्दपूर्वीः शिशम् बृहन्ति मदजः पनिप्रदम् हिरञ्जयम् शकुनम् क्षामणिस्थाम् ऊर्ध्वागन्धर्वो अधिनाके अस्थाद्विश्वा रूपा प्रतिचक्षाणो अस्य भानुः शुक्रेण शोचिषाव्यद्योत्प्रारोरुचद्रोदसे मातराशुचेः